कविम् कवीनामुपमश्रवस्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पत आनश्रण्वन् ज्योतिभिः सेदसादनम् प्रणो देवी सरस्वती वाजेभिः वाजिनीवते धीनाम वित्रयवतो गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उतोत इषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः यातयुष शिवतमा शिवम् बभूवते धनुः शिवाशरव्यायातवतयानो रुद्रमृणया याते रुद्र शिवा तनोरघोरा पापकाशिनी तया नस्तनुवाशन्तमया गिरिशन्तापि चाकशीः यामिषुम् गिरिशन्तहस्ते बिभर्ष्यस्तवे शिवाम् गिरित्रताम् कुरु माहिगुंसि पुरुषम् जगत् शिवेन वचसा त्वा गिरिशाच्छा वदामसि यथा नः सर्वमिज्जगद यक्ष्मगुम् सुमना असत् अध्यवोच ददि भक्ता प्रथमो नैज्यो भृशक् अहीगश्च सर्वाञ्जम् भयम् सर्वाश्च यातु धान्यः असौ यस्ताम्र अरुण उत बभ्रस्व मङ्गलः ये चेमागुम् रुद्रा अभितो दिक्षश्रुता सहस्रशो वैशागुम् हेण ईमहे असव्यो वसत्पति नीलग्रीवो विलोहितः उतैनम् गोपा अदृशन्नदृशन्नुदहार्यः उतैनम् विश्वा भूतानि च दृष्टो मृडयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीनुषे अथो ये अस्य सत्त्वानोऽहम् तेभ्यो करन्नमः प्रमुञ्च धन्वनस्त्वमुभयोराग्नियोर्जा यास्य ते हस्त इषव पराता भगवो वप अवतत्य धनुस्वगम् सहस्राक्षशतेषु ते निशील्य शल्याणामुखा शिवो नः सुमना भव विज्यम् धनुः कपर्दिनो विशल्यो बाणवागुम् उता अनेशन्नस्येशव आभुरस्य निषङ्गतिः या देहेतिर्मीडुष्टमहस्ते बभूवते धनुः तयास्मान् विश्वतस्त्वमयक्ष्मया परिभुज नमस्ते अस्वायुधायानादताय तृष्णवे उभाभ्यामुदते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान् वृणक्तु विश्वतः अथो य इषुदिस्तवारे अस्मन्निदेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युम् जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः नमो हिरण्यबाहवे सेनान्ये दिशाम् च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनाम् పతయే నమో నమః సస్మిన్ జలాయ త్వషీమతే పతీనాం పతయే నమో నమో బభ్లుషాయ విర్యాసినే నానాం పతయే నమో నమో హరికేశాయోపవీతినే పుష్టానాం పతయే నమో నమో భవస్య హేత్యై జగతాం పతయే నమో నమో రుద్రాయ తతావినే క్షేత్రాణాం పతయే నమో నమః సూతాయ హంత్యాయ వనానాం పతయే నమో నమో రోహితాయ స్తపతయే వృక్షాణాం పతయే నమో నమో మంత్రిణే వాణిజాయ కక్షాణాం పతయే నమో నమో భువంతయే వారివస్కృతాయౌషధీనాం పతయే నమో నమ ఉచ్చైర్ఘోషాయ క్రందయతే పత్తీనాం పతయే నమో నమ కృత్స్నవీతాయ ధావతే సత్వనాం పతయే నమః నమస్సహమానాయ నివ్యాధిన ఆవ్యాధినీనాం పతయే నమో నమః కకుభాయ నిషంగిణే సేనానాం పతయే నమో నమో నిషంగిణ ఇషుధిమతే తస్కరాణాం పతయే నమో నమో వంశతే పరివంశతే స్థాయూనాం పతయే నమో నమో నిచేరవే పరిచరాయారణ్యానాం పతయే నమో నమః శృగావిభ్యో జిగాగుంసద్భ్యో ముష్ణతాం పతయే నమో నమో శివద్భ్యో నక్తం చరద్భ్యః ప్రకృంతానాం పతయే నమో నమ ఉష్ణీషిణే గిరిచరాయ కులుంచానాం పతయే నమో నమ ఇషుమద్భ్యో ద్వన్వావిభ్యశ్చ వో నమో నమ ఆదన్వానేభ్య ప్రతిదధానేభ్యశ్చ వో నమో నమ ఆయక్షద్భ్యో విసృజభ్యశ్చ వో నమో నమోస్యద్భ్యో విద్యభ్యశ్చ వో నమో నమ ఆసీనేభ్య శయానేభ్యశ్చ వో నమో నమ స్వపద్భ్యో జాగ్రభ్యశ్చ వో నమో నమ స్థిష్టద్భ్యో దావభ్యశ్చ వో నమో నమ సభాభ్యః సభాపతిభ్యశ్చ వో నమో నమో అశ్వేభ్యోశ్వపతిభ్యశ్చ వో నమః నమ ఆవ్యాధినీభ్యో వివిధ్యంతేభ్యశ్చ వో నమో నమ ఉగణాభ్యస్త్రిగం హదేభ్యశ్చ వో నమో నమో గృత్సేభ్యో గృత్సపదిభ్యశ్చ వో నమో నమో వ్రాతేభ్యో వ్రాతపతిభ్యశ్చ వో నమో నమో గణేభ్యో గణపతిభ్యశ్చ వో నమో నమో విరూపేభ్యో విశ్వరూపేభ్యశ్చ వో నమో నమో మహద్భ్యః క్షుల్లకేభ్యశ్చ వో నమో నమో రతిభ్యో రతేభ్యశ్చ వో నమో నమో రథేభ్యో రథపతిభ్యశ్చ వో నమో నమ సేనాభ్యః సేనానిభ్యశ్చ వో నమో నమః శత్రుభ్యః సంగ్రహీతృభ్యశ్చ వో నమో నమస్తక్షద్భ్యో రథకారేభ్యశ్చ వో నమో నమ కులాలేభ్యః కర్మారేభ్యశ్చ వో నమో నమ పుంజిష్టేభ్యో నిషాదేభ్యశ్చ వో నమో నమ ఇషుకృద్భ్యో దన్వకృద్భ్యశ్చ వో నమో నమో మృగయోభ్యశ్వనిభ్యశ్చ వో నమో నమశ్వభ్యశ్వపదిభ్యశ్చ వో నమః నమో భవాయ చ రుద్రాయ చ నమః శర్వాయ చ పశుపతయే చ నమో నీలగ్రీవాయ చ శితికంఠాయ చ నమః కబర్దిణే చ వ్యుక్తకేశాయ చ నమః సహస్రాక్షాయ చ శతధన్వనే చ నమో గిరిశాయ చ శిబిభిష్టాయ చ నమో మీనుష్టమాయ జేషుమతే చ నమో రస్వాయ చ వామనాయ చ నమో బృహతే చ వర్షీయసే చ నమో వృద్ధాయ చ సంవృద్ధ్వనే చ నమో అగ్ర్యాయ చ ప్రథమాయ చ నమః ఆశవే చాజిరాయ చ నమః శీఘ్రియాయ చ శీవ్యాయ చ నమః ఊర్జ్యాయ చావస్వన్యాయ చ నమః శ్రోతస్యాయ చ వీప్యాయ చ నమో జ్యేష్ఠాయ చ కనిష్ఠాయ చ నమః పూర్వజాయ చ పరజాయ చ నమో మధ్యమాయ చ పగల్వాయ చ నమో జగన్యాయ చ వద్నియాయ చ నమః సోభ్యాయ చ ప్రతిసర్యాయ చ నమో యామ్యాయ చ క్షేమ్యాయ చ నమః ఉర్వర్యాయ చ ఖల్యాయ చ నమః శ్లోక్యాయ చావసాన్యాయ చ నమో వన్యాయ చ కక్ష్యాయ చ నమః శ్రవాయ చ ప్రతిశ్రవాయ చ నమః ఆశుషేనాయ చాశురథాయ చ నమః శూరాయ చావవిందతే చ నమో వర్మిణే చ వరోధినే చ నమో విల్వినే చ కవచినే చ నమః శ్రుతాయ చ శ్రుతసేనాయ చ నమో దుందుభ్యాయ చ హరణ్యాయ చ నమో ఋష్టవే చ ప్రమషాయ చ నమో దూతాయ చ ప్రహితాయ చ నమో నిషంగిణే చేషు ధీమతే చ నమః తీక్ష్ణేశవే చాయుధినే చ నమః స్వాయుధాయ చ సుధన్వనే చ నమః శ్రుత్యాయ చ పత్యాయ చ నమః కాట్యాయ చ నీప్యాయ చ నమః శ్రోత్యాయ చ సరస్యాయ చ నమో నాద్యాయ చ వైశంతాయ చ నమః కూప్యాయ చ వట్యాయ చ నమో వర్ష్యాయ చ వర్ష్యాయ చ నమో మేఘ్యాయ చ విద్యుత్యాయ చ నమః ఇంద్రియాయ చ తప్యాయ చ నమో వాక్యాయ చ రేష్మ్యాయ చ నమో వాస్తవ్యాయ చ వాస్తుపాయ చ ఓం హర 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 ఓం నమః సోమాయ చ రుద్రాయ చ నమః తామ్రాయ చ రుణాయ చ నమః శంగాయ చ పశుపతయే చ నమః ఉగ్రాయ చ భీమాయ చ నమో అగ్రే వధాయ చ దూరే వధాయ చ నమో హంద్రే చ హనీయసే చ నమో వృక్షేభ్యో హరికేశేభ్యో నమః తారాయ నమః శంభవే చ మయోభవే చ నమః శంకరాయ చ మయస్కరాయ చ నమః శివాయ చ శివతరాయ చ నమః తీర్థ్యాయ చ కుల్యాయ చ నమః పార్యాయ చ వార్యాయ చ నమః ప్రతరణాయ చోత్తరణాయ చ నమః ఆతార్యాయ చ లాద్యాయ చ నమః షష్ప్యాయ చ వేణ్యాయ చ నమః శిఖ్యాయ చ ప్రవాహ్యాయ చ నమః ఇరిణ్యాయ చ ప్రపత్యాయ చ నమః కిగుంశిలాయ చ క్షయనాయ చ నమః కపర్దినే చ పులస్తయే చ నమో గోష్ట్యాయ చ గృహ్యాయ చ నమః స్థల్ప్యాయ చ గేహ్యాయ చ నమః కాట్యాయ చ గహ్వరేష్టాయ చ నమో హృదయ్యాయ చ నివేష్ప్యాయ చ నమః పాగుంసవ్యాయ చ రజస్యాయ చ నమః शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नम ऊर्याय च सूर्याय च नम पर्याय च वर्णशद्याय च नमो पगुरमानाय चाभिदते च नम आक्षिदते च प्रक्षिदते च नमो वक्रिकेभ्यो देवानागम् हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वक्केभ्यो नम आनिर्हतेभ्यो नम आमीवक्केभ्यः द्रावे अन्धसस्वते दरिद्रन्नीललोहिता येषाम् पुरुषाणामेषाम् पशूनाम् मा भेर्मा रोमो येषाम् किञ्च नाम मद या ते रुद्र शिवा तनो शिवा विश्वाः भेषजे शिवा रुद्रस्य भेषजे दयानो मृणजीवसे इमागुम् रुद्राय तवसे कपर्दिने क्षयद्वीराय प्रमरामहे मतिम् यथा नश्यमसद्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् मृळानो रुद्रो तनो मयस्कृति क्षयद्वीराय नमसा विधेमते यच्छम् च योऽस्यमनुराय जे पिता तदश्यामतव रुद्र प्रणीतो मानो महान्तमुदमानो अर्भकम् मान उक्षन्तमुदमान उक्षितम् मानो वदे पितरम् मोद मातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानस्तोकेतन ये मान आयुषि मानो गोषु मानो अश्वेषु रीरिषः वीरान्मानो रुद्रभावितो वदेत् अविष्मन्तो नमसा विधेमते आराते गोग्न उत पोरुषग्ने क्षयद्वीराय सुम् नमस्मेते अस्तु रक्षा च नो अलि च देव प्रोह्यदा च नः शर्म यच्छद्विबर्हा सुहृश्रुतम् गर्त सदम् युवानम् मृगन्न भीममुपहत्नु मुग्रम् मृडा चरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव पन्तु सेना परिणो रुद्रस्य हेतिर्मृणक्तु परित्वेषस्य दुर्मदिरगायोः अवस्थिरा मगवद्भ्यस्तनुष्वमीरस्तोकाय तनयाय मृणया मीरुष्टमशिवतमशिवो नः सुमना भव परमे वृक्ष आयुधन्निधाय कृत्तिम् वसान आचर पिनाकम् बिभ्रदागहि विगिरिदविलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् हेतयोन्यमस्मन्निव पन्तु ताः सहस्राणि सहस्रदा बाहुवोस्तव हेतयः तासामीशानो भगव पराचीनामुखाकृति सहस्राणि सहस्रशो ये रुद्र अधिभूम्या तेषागुम् सहस्रयोधने वधन्वानि दन्मसे अस्मिन्महत्यर्णवेऽन्तरिक्षे भव अधि नीलग्रीवाश्रितिकण्ठा शर्वा अधः क्षमाचराः नीलग्रीवाश्रितिकण्ठादिवगुम् रुद्रा उपश्रिताः ये वृक्षेषु तस्मिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिकासः कपर्दिनः ये अन्येषु विविद्यन्ति पात्रेषु विपतो जनान् ये पताम् परिरक्षय ऐलभृदायव्युधः ये तीर्थानि प्रचरन्ति सृकावन्तो निषङ्गिणः य एतावन्तश्च भूयागुंसश्च दिशो रुद्राविदस्तिरे तेषागुंसात्रयो जने वधन्वानि तन्मसि नमो रुद्रेभ्यो ये पृथिव्याम् येन्दरिक्षे ये दिवि ये शामन्नम् वातो वर्षमिषवस्तेभ्यो दश प्राचेर्दश दक्षिणा दश प्रदेचेर्दशो देचेर्दशो द्वास्तेभ्यो नमस्ते नो मृडयन्तु देयम् द्विष्मो यश्च नो द्वेष्टितम् भोजम् मे ददामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव वन्दनान् मृत्योर्मुक्षीयमामृतात् यो रुद्रो आग्नव्यो अप्सु य ओषधीषु यो रुद्रो विश्वाभुवनाविवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतम् पाशा मृत्यो मर्त्याय हन्तवे तान् यज्ञस्य मायया सर्वानवयजामहे नृत्यवे स्वाहा नृत्यवे स्वाहा प्राणानाम् गन्धिरसि रुद्रो मा विशान्तकः तेनानेनाप्याय स्वा नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमुश्रु ह्यश्रुशुश्रुदन्वायो विश्वस्य क्षयति मे रजस्य यक्ष्वा महेशो मनसाय रुद्रम् नमो भिर्देवमसुरम् दुवस्य अयम् मे हस्तो भगवान् अयम् मे भगवत्तरः अयम् मे विश्वभेदजो यगु शिवाभिमर्शनः ॐ शान्ति शान्ति शान्तिः ॐ अग्ना विष्णो सजोष सेवावद्धन्तु वाङ्गिरः द्युम्नैर्वाजेभिरागतम् वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसितिश्च मे धीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे सुवश्च मे पानश्च मे पानश्च मे व्यानश्च मे सुश्च मे चित्तम् च मादेतम् च मे वाक्च मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे दक्षश्च मे बलम् च म ओजश्च मे सहश्च म आयुश्च मे जरा च म आत्मा च मे तनोश्च मे शर्म च मे वर्म च मेऽङ्गानि च मे स्थानि च मे परोगुंसि च मे शरीराणि च मे जैष्ठ्यम् च आधिपत्यम् च मे मन्युश्च मे भामश्च मेमश्च मेऽम्भश्च मे जेमा च मे महिमा च मे वरिमा च मे प्रतिमा च मे वश्मा च मे रघुया च मे वृद्धम् च मे वृद्धिश्च मे सत्यम् च मे श्रद्धा च मे जगच्छ मे धनम् च मे वशश्च मे द्विषश्च मे क्रीडा च मे मोदश्च मे जातम् च मे जनिष्यमानम् च मे सूक्तम् च मे सुकृतम् च मे वित्तम् च मे वेद्यम् च मे भूतम् च मे भविष्यच्च मे सुगम् च मे सुपथम् च मरुद्धम् च मरुद्धिश्च मे कृक्तम् च मे कृप्तिश्च मे मतिश्च मे सुमतिश्च मे शरम् च मे मयश्च मे प्रियम् च मे नो कामश्च मे कामश्च मे सौमनसश्च मे भद्रम् च मे श्रेयश्च मे वश्यश्च मे यशश्च मे फलश्च मे द्रविणम् च मे यन्ता च मे धर्म ಭಟ್ಟಾ ಚ ಮೇ ಕ್ಷೇಮಶ್ಚ ಮೇ ಕೃತಿಶ್ಚ ಮೇ ವಿಶ್ವಂ ಚ ಮೇ ವಹಶ್ಚ ಮೇ ಸಂವೇಚ್ಚ ಮೇ ಜ್ಞಾತ್ರಂ ಚ ಮೇ ಸೋಶ್ಚ ಮೇ ಪ್ರಸೋಶ್ಚ ಮೇ ಸೇಲಂ ಚ ಮೇ ಲಯಶ್ಚ ಮರುತಂ ಚ ಮೇ ಮೃತಂ ಚ ಮೇ ಯಕ್ಷ್ಮಂ ಚ ಮೇ ನಾಮಯಶ್ಚ ಮೇ ಜೀವಾತುಶ್ಚ ಮೇ ದೀರ್ಘಾಯುತ್ವಂ ಚ ಮೇ ನ ಮಿತ್ರಂ ಚ ಮೇ ಭಯಂ ಚ ಮೇ ಸುಗಂ ಚ ಮೇ ಶಯನಂ ಚ ಮೇ ಸೋಷಾ ಚ ಮೇ ಸುದಿನಂ ಚ ಮೇ ಓಚ್ಚ ಮೇ ಸೋನೃತ ಚ ಮೇ ಪಯಶ್ಚ ಮೇ ರಸಶ್ಚ ಮೇ ಘೃತಂ ಚ ಮೇ ಮಧು ಚ ಮೇ ಸದ್ಭಿಶ್ಚ ಮೇ ಸಪೇತಿಶ್ಚ ಮೇ ಕೃಷಿಶ್ಚ ಮೇ ವೃಷ್ಟಿಶ್ಚ ಮೇ ಜೈತ್ರಂ ಚ ಮಾಭಿದ್ಯಂ ಚ ಮೇ ರಯಶ್ಚ ಮೇ ರಾಯಶ್ಚ ಮೇ ಪುಷ್ಟಂ ಚ ಮೇ ಪುಷ್ಟಿಶ್ಚ ಮೇ ವಿಭು ಚ ಮೇ ಪ್ರಭು ಚ ಮೇ ಬಹು ಚ ಮೇ ಭೂಯಶ್ಚ ಮೇ ಪೂರ್ಣಂ ಚ ಮೇ ಪೂರ್ಣತರಂ ಚ ಮೇ ಕ್ಷಿತಿಶ್ಚ ಮೇ ಕೋಯವಾಶ್ಚ ಮೇ ನಂ ಚ ಮೇ ಶುಚ್ಚ ಮೇ ಬ್ರೀಹಯಶ್ಚ ಮೇ ಯವಾಶ್ಚ ಮೇ ಮಾಶಾಶ್ಚ ಮೇ ತಿಲಾಶ್ಚ ಮೇ ಮುದ್ಗಾಶ್ಚ ಮೇ ಖಲ್ವಾಶ್ಚ ಮೇ ಗೋಧೂಮಾಶ್ಚ ಮೇ ಮಸುರಾಶ್ಚ ಮೇ ಪ್ರಿಯಂಗವಶ್ಚ ಮೇ ನವಶ್ಚ ಮೇ ಶ್ಯಾಮಕಾಶ್ಚ ಮೇ ನಿವಾರಾಶ್ಚ ಮೇ ಅಶ್ಮಾಚ ಮೇ ಮೃತ್ಯಕಾಚ ಮೇ ಗಿರಯಶ್ಚ ಮೇ ಪರ್ವತಾಶ್ಚ ಮೇ ಸಿಗತಾಶ್ಚ ಮೇ ವನಸ್ಪತಯಶ್ಚ ಮೇ ಹಿರಣ್ಯಂ ಚ ಮೇ ಯಶ್ಚ ಮೇ ಶೇಷಂ ಚ ಮೇ ತ್ರಪುಶ್ಚ ಮೇ ಶ್ಯಾಮಂ ಚ ಮೇ ಲೋಹಂ ಚ ಮೇ ಅಗ್ನಿಶ್ಚ ಮ ಆಪಶ್ಚ ಮೇ ವಿರೋಧಶ್ಚ ಮ ಔಷಧಯಶ್ಚ ಮೇ ಕೃಷ್ಟಪಚ್ಯಂ ಚ ಮೇ ಕೃಷ್ಟಪಚ್ಯಂ ಚ ಮೇ ಗ್ರಾಮ್ಯಾಶ್ಚ ಮೇ ಪಶವ ಆರಣ್ಯಾಶ್ಚ ಯಜ್ಞೇನ ಕಲ್ಪಂತಾಂ ವಿತ್ತಂ ಚ ಮೇ ವಿತ್ತಿಶ್ಚ ಮೇ ಭೂತಂ ಚ ಮೇ ಭೂತಿಶ್ಚ ಮೇ ವಸು ಚ ಮೇ ವಸತಿ ಶ್ಚ ಮೇ ಕರ್ಮ ಚ ಮೇ ಶಕ್ತಿಶ್ಚ ಮೇ ಅರ್ಥಶ್ಚ ಮ ಏಮಶ್ಚ ಮ ಇತಿಶ್ಚ ಮೇ ಗತಿಶ್ಚ ಮೇ ಅಗ್ನಿಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಸೋಮಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಸವಿತಾ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಸರಸ್ವತಿ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಪೋಷಾ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಬೃಹಸ್ಪತಿಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಮಿತ್ರಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ವರುಣಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ತ್ವಷ್ಟಾ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಧಾತಾ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ವಿಷ್ಣುಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಶ್ವಿನೋ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಮರುತಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ವಿಶ್ವೇ ಚ ಮೇ ದೇವಾ ಇಂದ್ರಶ್ಚ ಮೇ ಪೃಥಿವೇ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇಂತರಿಕ್ಷಂ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ದ್ಯೋಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ದಿಶಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಮೋರ್ಧಾ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಪ್ರಜಾಪತಿಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಅಗುಂಶುಶ್ಚ ಮೇ ರಶ್ಮಿಶ್ಚ ಮೇಧಾಭ್ಯಶ್ಚ ಮೇಧಿಪತಿಶ್ಚ ಮ ಉಪಾಗುಂಶುಶ್ಚ ಮೇಂದರ್ಯಾಮಶ್ಚ ಮ ಐಂದ್ರವಾಯವಶ್ಚ ಮೇ ಮೈತ್ರಾವರುಣಶ್ಚ ಮ ಅಶ್ವಿನಶ್ಚ ಮೇ ಪ್ರತಿಪ್ರಸ್ಥಾನಶ್ಚ ಮೇ ಶುಕ್ರಶ್ಚ ಮೇ ಮಂಥೇ ಚ ಮ ಆಗ್ರಯಣಶ್ಚ ಮೇ ವೈಶ್ವದೇವಶ್ಚ ಮೇ ಧ್ರುವಶ್ಚ ಮೇ ವೈಶ್ವಾನರಶ್ಚ ಮರುತು ಗ್ರಹಾಶ್ಚ ಮೇ ತಿಗ್ರಾಹ್ಯಾಶ್ಚ ಮ ಐಂದ್ರಾಗ್ನಶ್ಚ ಮೇ ವೈಶ್ವದೇವಶ್ಚ ಮೇ ಮರುತ್ವದೀಯಾಶ್ಚ ಮೇ ಮಾಹೇಂದ್ರಶ್ಚ ಮ ಆದಿತ್ಯಶ್ಚ ಮೇ ಸಾವಿತ್ರಶ್ಚ ಮೇ ಸಾರಸ್ವತಶ್ಚ ಮೇ ಪೌಷ್ಣಶ್ಚ ಮೇ ಪಾತ್ನೀವತಶ್ಚ ಮೇ ಹಾರ್ಯೋಜನಶ್ಚ ಮೇ इद्मश्च मे बल्यश्च मे वेदश्च मे वृष्णयाश्च मे शुचश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च म उपरवाश्च मे भिषवणे च मे द्रोणकलशश्च मे वायव्यानि च मे पोतवृक्ष म आधवनीयश्च म आग्नेयेन्द्रम् च मे हविर्धानम् च मे गृहाश्च मे सदश्च मे पुरोडाशाश्च मे पजताश्च मे वृदश्च मे स्वराकारश्च मे अग्निश्च मे धर्मश्च मेऽर्कश्च मे सूर्यश्च मे प्राणश्च मे श्वमेधश्च मे पृथिवी च मे दितिश्च मे दितिश्च मे द्यौश्च मे शक्वरीरङ्गुलयो दिशश्च मे यज्ञेन कल्पन्तामृच्च मे साम च मे सोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मरुतुश्च मे व्रतम् च मे होरात्रयोर्वृष्ट्या बृहद्रदन्तरे च मे यज्ञेन कल्पेताम् गर्भाश्च मे वत्साश्च मे त्रयविश्च मे त्रयवे च मे द्वित्यवाच्च मे द्वित्यौहे च मे पञ्चाविश्च मे पञ्चावे च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाच्च मे तुर्यौहे च मे पष्टवाच्च मे पष्टौहे च मभुक्षा च मे वशा च मरुषभश्च मे वेहश्च मे नड्वाञ्च मे धेनुश्च म आयुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पतामपानो यज्ञेन कल्पताम् व्यानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पता गुश्रोत्रम् यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाग्यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविगुंसतिश्च मे त्रयो विगुंसतिश्च मे पञ्च विगुंसतिश्च मे सप्त विगुंसतिश्च मे नव विगुंसतिश्च म एकत्रिगुंसच्च मे त्रयस्त्रिगुंसच्च मे चतस्रश्च मेऽष्टौ च मे द्वादश च मे षोडश च मे विगुंसतिश्च मे चतुर्विगुंसतिश्च मे ष्टाविगुंसतिश्च मे द्वात्रिगुंसच्च मे षट्रिगुंसच्च मे चत्वारिगुंसच्च मे चतुश्चत्वारिगुंसच्च मे अष्टाचत्वारिगुंसच्च मे वाजश्च प्रसवश्चाबीजश्च क्रतुश्च शुवश्च मूर्धा च व्यस्नियश्चान्त्यायनश्चान्त्यश्च भौ वनश्च भुवनश्चाधिपतिश्च इडा देवहोर्मनुर्यज्ञनि बृहस्पतिरुक्ता मदानि सगुं द्विषद्विश्वे देवासोऽर्तवाच पृथिवीमातर्नामाहिगुंसेर् मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमतीम् देवेभ्यो वाचमुद्यासगुम् शुश्रूषेण्या मनुष्येभ्यस्तम् मा देव अवन्तु शोभाय पितरो नु वदन्तु ॐ शान्ति शान्ति शान्तिः ॐ तच्छैयोरावृणीमहे गातुं यज्ञाय गातुं यज्ञपतये ದೈವೇ ಸ್ವಸ್ತಿರಸ್ತು ನಃ ಸ್ವಸ್ತಿರ್ಮಾನುಷೇಭ್ಯಃ ಊರ್ಧ್ವಂ ಜಿಗಾತು ಭೇಷಜಂ ಶನ್ನೋ ಅಸ್ತು ದ್ವಿಪದೇ ಶಂ ಚತುಷ್ಪದೇ ಓಂ ಶಾಂತಿ 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 ಸಹಸ್ರಶೀರ್ಷಾ ಪುರುಷ ಸಹಸ್ರಾಕ್ಷ ಸಹಸ್ರಪಾದ ಸಭೂಮಿಂ ವಿಶ್ವತೋ ವೃತ್ವಾ ಅತ್ಯದಿಷ್ಟದ್ದಶಾಂಗುಲಂ ಪುರುಷ ಏವೇದಗುಂ ಸರ್ವಂ ಯದ್ಭೂತಂ ಯಚ್ಚ ಭವ್ಯಂ ಉತಾಮೃತತ್ವಸ್ಯೇಷಾನಃ ಯದನ್ನೇನಾತಿರೋಹತಿ ಏತಾವಾನಸ್ಯ ಮಹಿಮಾ ಅತೋ ಜ್ಯಾಯಾಗಶ್ಚ ಪುರುಷಃ ಪಾಲೋಸ್ಯ ವಿಶ್ವಾಭೂತಾನಿ ತ್ರಿಪಾದಸ್ಯಾಮೃತಂ ದಿವಿ ತ್ರಿಪಾದೋರ್ಧ್ವವುದಯತ್ಪುರುಷಃ ಪಾದೋಸ್ಯೇಹಾ ಭವಾತ್ ಪುನಃ ತತೋ ವಿಶ್ವಂ ಯಕ್ರಾಮತ್ ಸಾಶನಾನಶನೆ ಅಭಿ ತಸ್ಮಾತ್ ವಿರಾಡ ಜಾಯತ ವಿರಾಜೋ ಅಧಿಪುರುಷಃ ಸಜಾತೋ ಅತ್ಯರಿಚ್ಯತ ಪಶ್ಚಾತ್ ಭೂಮಿಮಥೋ ಪುರಃ ಯತ್ಪುರುಷೇಣ ಹವಿಷಾ ದೇವಾ ಯಜ್ಞಮತನ್ವತ ವಸಂತೋ ಅಸ್ಯಾಸೀದಾಜ್ಯಂ ಗ್ರೀಷ್ಮಹಿದ್ಮ ಶರದ್ಧವಿಃ ಸಪ್ತಾಸ್ಯಾಸನ್ ಪರಿಧಯಃ ತ್ರಿಸಪ್ತ ಸಮಿದ ಕೃತಾಃ ದೇವಾ ಯಜ್ಞಜ್ಞಂ ತನ್ವಾನಾಃ ಅಭದ್ರನ್ ಪುರುಷಂ ಪಶುಂ ತಂಯಜ್ಞಂ ಬರ್ಹಿಷಿ ಪ್ರೋಕ್ಷನ್ ಪುರುಷಂ ಜಾತಮಗ್ರತಃ ತೇನ ದೇವಾ ಅಯಜಂತ ಸಾಧ್ಯಾರ್ಷಯಶ್ಚ ಯೇ ತಸ್ಮಾತ್ ಯಜ್ಞಾತ್ ಸರ್ವಹುತಃ ಸಂಭೃತಂ ಬೃಷದಾಜ್ಯಂ ಪಶುಗುಸ್ತಾಗುಶ್ಚಕ್ರೇ ವಾಯವ್ಯಾನ ಆರಣ್ಯಾನ್ ಗ್ರಾಮ್ಯಾಶ್ಚ ಯೇ ತಸ್ಮಾತ್ ಯಜ್ಞಾತ್ ಸರ್ವಹುತಃ ರಚ ಸಾಮಾನಿ ಜಗ್ನಿರೆ ಛಂದಾಗುಂಸಿ ಜಗ್ನಿರೆ ತಸ್ಮಾತ್ ಯಜುಸ್ತಸ್ಮಾತ್ ಅಜಾಯತ ತಸ್ಮಾದಶ್ವ ಅಜಾಯಂತ ಏಕೇಚೋ ಭಯಾದತಃ ಗಾವೋಹ ಜಗ್ನಿರೆ ತಸ್ಮಾತ್ ತಸ್ಮಾತ್ ಜಾತ ಅಜಾವಯಃ ಯತ್ಪುರುಷಂ ವ್ಯಷದುಃ ಕಥಿತಾವ್ಯಕಲ್ಪಯನ್ ಮುಖಂ ಕಿಮಸ್ಯ ಕೌ ಬಾಹೋ ಕಾವೋರು ಪಾದಾವುಚ್ಯೇತೆ ಬ್ರಾಹ್ಮಣೋಸ್ಯ ಮುಖಮಾಸೀತ್ ಬಾಹೋರಾಜನ್ಯಃ ಕೃತಃ ಊರೂ ದದಸ್ಯ ಯದ್ವೈಶ್ಯಃ ಪದ್ಭ್ಯಾಗುಂ ಶೂದ್ರೋ ಅಜಾಯತ ಚಂದ್ರಮಾ ಮನಸೋ ಜಾತಃ ಚಕ್ಷೋಸೂರ್ಯೋ ಅಜಾಯತ ಮುಖಾದಿಂದ್ರಶ್ಚಾಗ್ನಿಶ್ಚ ಪ್ರಾಣಾದ್ವಾಯುರಜಾಯತ ನಾಭ್ಯಾ ಆಸೀದಂತರಿಕ್ಷಂ ಶೀರ್ಷ್ಣೋದ್ಯೌ ಸಮವರ್ತತ ಪದ್ಯಾಂ ಭೂಮಿರ್ದಿಶ ಶ್ರೋತ್ರಾತ್ ತಥಾ ಲೋಕಾಗುಂ ಅಕಲ್ಪಯನ್ ವೇದಾಹಮೇತಂ ಪುರುಷಂ ಮಹಾಂತಂ ಆದಿತ್ಯವರ್ಣಂ ತಮಸಸ್ತು ಪಾರೇ ಸರ್ವಾಣಿ ರೂಪಾಣಿ ವಿಚಿತ್ಯ ಧೀರಃ ನಾಮಾನಿ ಕೃತ್ವಾಭಿವದನ್ ಯದಾಸ್ತೇ ಧಾತಾ ಪುರಸ್ತಾದ್ಯಮುದಾ ಜಹಾರ ಶಕ್ರ ಪ್ರವಿದ್ವಾನ್ ಪ್ರದಿಶಶ್ಚ ದಸ್ರಃ ತಮೇವಂ ವಿದ್ವಾನಮೃತ ಇಹ ಭವತಿ ನಾನ್ಯಃ ಪಂಥಾ ಅಯನಾಯ ವಿದ್ಯತೆ ಯಜ್ಞೇನ ಯಜ್ಞಮಯಜಂತ ದೇವಾಃ ತಾನಿ ಧರ್ಮಾನಿ ಪ್ರಥಮಾನ್ಯಾಸನ್ ತೇ ಹನಾಕಂ ಮಹಿಮಾನಸ್ಯ ಚಂದೇ ಯತ್ರ ಪೂರ್ವೇ ಸಾಧ್ಯಾ ಸಂತಿ ದೇವಾಃ ಅಭ್ಯ ಸಂಭೂತ ಪೃಥಿವ್ಯೈರಸಾಚ ವಿಶ್ವಕರ್ಮಣ ಸಮವರ್ತದಾಧಿ ತಸ್ಯ ತ್ವಷ್ಟಾ ವಿದದದ್ರೂಪಮೇದಿ ತತ್ಪುರುಷಸ್ಯ ವಿಶ್ವಮಾಜಾನಮಗ್ರೇ ವೇದಾಹಮೇದಂ ಪುರುಷಂ ಮಹಾಂತಂ ಆದಿತ್ಯವರ್ಣಂ ತಮಸ ಪರಸ್ತಾದ್ ತಮೇವಂ ವಿದ್ವಾನ್ ಹೃದಯಃ ಭವತಿ ನಾನ್ಯ ಪಂಥಾ ವಿದ್ಯತೆ ಜನಾಯ ಪ್ರಜಾಪತಿಶ್ಚರತಿ ಗರ್ಭೇ ಅಂತಃ ಅಜಾಯಮಾನೋ ಬಹುಧಾ ವಿಜಾಯತೆ ತಸ್ಯ ಧೀರಾಃ ಪರಿಜಾನಂತಿ ಯೋನಿಂ ಮರೀಚೀನಾಂ ಪದಮಿಚ್ಛಂತಿ ವೇದಸಃ ಯೋ ದೇವೇಭ್ಯ ಆದಪತಿ ಯೋ ದೇವಾನಾಂ ಪುರೋಹಿತಃ ಪೂರ್ವೋ ಯೋ ದೇವೇಭ್ಯೋ ಜಾತಃ ನಮೋ ರುಚಾಯ ಬ್ರಾಹ್ಮಯೇ ಋಚಂ ಬ್ರಾಹ್ಮಂ ಜನಯಂತಃ ದೇವಾ ಅಗ್ರೇ ತದಬ್ರುವನ್ ಯಸ್ತ್ವೈವಂ ಬ್ರಾಹ್ಮಣೋ ವಿದ್ಯಾತ್ ತಸ್ಯ ದೇವಾ ಅಸನ್ವಶೇ ಹ್ರೀಶ್ಯತೆ ಲಕ್ಷ್ಮೀಶ್ಯ ಪತ್ನ್ಯೋ ಅಹೋರಾತ್ರೇ ಪಾರ್ಶ್ವೇ ನಕ್ಷತ್ರಾಣಿ ರೂಪಂ ಅಶ್ವಿನೌ ವ್ಯಾಪ್ತಂ ಇಷ್ಟಂ ಮನಿಷಾಣ ಅಹಂ ಮನಿಷಾಣ ಸರ್ವಂ ಮನಿಷಾಣ ತಚ್ಛಯ್ಯೋರಾವೃಣೀಮಹೇ ಗಾತುಂ ಯಜ್ಞಾಯ ಗಾತುಂ ಯಜ್ಞಪದಯೇ ದೈವೀ ಸ್ವಸ್ತಿರಸ್ತು ನಃ
ಸ್ವಸ್ತಿರ್ಮಾನುಷೇಭ್ಯಃ ಊರ್ಧ್ವಂ
ಜಿಗಾತು ಭೇಷಜಂ ಶನ್ನೋ ಅಸ್ತು ದ್ವಿಪದೇ ಶಂ ಚತುಷ್ಪದೇ ಓಂ ಶಾಂತಿ ಶಾಂತಿ ಶಾಂತಿಃ ಓಂ ಅತ್ರಿಣಾತ್ವಾ ಕ್ರಿಮೇ ಹನ್ಮೇ ಕಣ್ವೇನ ಜಮದಗ್ನಿನಾ ವಿಶ್ವಾವಸೋರ್ಬ್ರಹ್ಮಣಾ ಹತಃ ಕ್ರಿಮೇಣಾಗುಂ ರಾಜಾ ಅಪ್ಯೇಷಾಗಸ್ತಪತಿರ್ಹತಃ ಅಥೋ ಮಾತಾ ಥೋ ಪಿತಾ ಅಥೋ ಸ್ಥೂರಾ ಅಥೋ ಕ್ಷುದ್ರಾಃ ಅಥೋ ಕೃಷ್ಣ ಅಥೋ ಶ್ವೇತಾಃ ಅಥೋ ಆಶಾದಿಕಾ ಹತಾಃ ಶ್ವೇತಾಭಿಃ ಸಹ ಸರ್ವೇ ಹತಾಃ ಆಹರಾವದ್ಯಾ ಶ್ರುತಸ್ಯ ಹವಿಷೋ ಯಥಾ ತತ್ಸತ್ಯಂ ಯದಮುಯ್ಯಮಸ್ಯ ಜಂಭಯೋ ಆದಧಾಭಿ ತಥಾ ಹಿ ತತ್ ಖನ್ಫನ್ರಸಿ ಓಂ ಶಾಂತಿ ಶಾಂತಿ ಶಾಂತಿಃ ಓಂ ಆತೋರ ಇಂದ್ರ ಕ್ಷುಮಂತಂ ಚಿತ್ರಂ ಗ್ರಾಭಂ ಸಂಗೃಭಾಯ ಮಹಾಹಸ್ತೆ ದಕ್ಷಿಣೇನ ವಿದ್ಮಾಹಿತ್ವಾ ತುವಿ ಕೂರ್ಮಿಂ ತುವಿ ದೇಷ್ಟಂ ತುವಿ ಮಖಂ ತುವಿ ಮಾತ್ರಮವೋಭಿಃ ನಹಿತ್ವಾ ಶೂರದೇವಾನಮರ್ತಾ ಶೋಧಿಸಂತಂ ಭೀಮಂ ನಗಾಂ ವಾರಯಂತೆ ಯೇ ತೋನ್ವಿಂದ್ರಂ ಸ್ತವಾಮೇಶಾನಂ ವಸ್ವಸ್ವರಾಜಂ ನರಾಜಸಾಮರ್ಥಿಷನ್ನಃ ಪ್ರಸ್ತೋ ಶದುಪಗಾರಿ ಸಚ್ರವತ್ಸಾಮಗೀಯಮಾನಂ ಅಭಿರಾಜಸಾ ಜುಗುರತ್ ಆನೋ ಭರದಕ್ಷಿಣೇನಾಭಿಸವ್ಯೇನ ಪ್ರಮೃಶ ಇಂದ್ರಮಾನೋ ವಸೋರ್ನಿರ್ಭಾಕ್ ಉಪಕ್ರಮಸ್ವಾಭರದೃಷದಾದೃಷ್ಣೋ ಜನಾನಾಂ ಅಥಾಶೋಷ್ಠರಸ್ಯ ವೇದಃ ಇಂದ್ರಯವುನುತೇ ಅಸ್ತಿ ವಾಜೋ ವಿಪ್ರೇ ವಿಸ್ಸರಿತ್ವಃ ಅಸ್ಮಾಭಿಃ ಸುತಂ ಸನುಹಿ ಸದ್ಯೋಜುವಸ್ತೆ ವಾಜಾ ಅಸ್ಮಭ್ಯಂ ವಿಶ್ವಶ್ಚಂದ್ರಾಃ ವಸೈಶ್ಚ ಮಕ್ಷೋ ಜರಂತೆ ಗಣಾನಾಂ ತ್ವಾ ಗಣಪತಿಂ ಭವಾಮಹೇ ಕವಿಂ ಕವೀನಾಮುಪಮಶ್ರವಸ್ತಮಂ ಜ್ಯೇಷ್ಠರಾಜಂ ಬ್ರಹ್ಮಣಾಂ ಬ್ರಹ್ಮಣಸ್ಪತ ಆರಶೃಣ್ವನ್ನೋತಿಭಿಃ ಸೇದಸಾದನಂ ನಿಶುಸೇದ ಗಣಪತೆ ಗಣೇಶೋತ್ವಾಮಾ ಪುರ್ವಿ ಪ್ರಥಮಂ ಕವೀನಾಂ ನರಿತೆ ತ್ವಕ್ರಿಯತೆ ಕಿಂಚ ನಾರೇ ಮಹಾಮರ್ಕಂ ಮಘವನ್ ಚಿತ್ರಮರ್ಚ್ಯ ಅಭಿಖ್ಯಾನೋ ಮಘವನ್ನಾಥಮಾನಾನ್ ಸಖೇ ಬೋಧಿ ವಸುಪತೆ ಸಖೇನಾಂ ರಣಂ ಕೃಧಿರಣಕೃಚ್ಛತ್ಯ ಸುಷ್ಮಾ ಭಕ್ತೆ ಚಿದಾಭಜಾರಾಯೇ ಅಸ್ಮಾನ್ ಶಾಂತಿ 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 ಓಂ ದೇವಸ್ಯ ತ್ವಾ ಸವಿತು ಪ್ರಸವೇ ಅಶ್ವಿನೋರ್ಬಾಹುಭ್ಯಾಂ ಪೂಷ್ಣೋ ಹಸ್ತಾಭ್ಯಾಂ ಅಶ್ವಿನೋರ್ಭೈಷಜ್ಜೇನ ತೇಜಸೇ ಬ್ರಹ್ಮವಚ್ಚಸಾ ಯಾಭಿಷಿಂಚಾಮಿ ದೇವಸ್ಯ ತ್ವಾ ಸವಿತು ಪ್ರಸವೇ ಅಶ್ವಿನೋರ್ಬಾಹುಭ್ಯಾಂ ಪೂಷ್ಣೋ ಹಸ್ತಾಭ್ಯಾಂ ಸರಸ್ವತ್ಯೈ ಭೈಷಜ್ಜೇನ ವೀರ್ಯಾಯಾನಾದ್ಯಾಯಾಭಿಷಿಂಚಾಮಿ ದೇವಸ್ಯ ತ್ವಾ ಸವಿತು ಪ್ರಸವೇ ಅಶ್ವಿನೋರ್ಬಾಹುಭ್ಯಾಂ ಪೂಷ್ಣೋ ಹಸ್ತಾಭ್ಯಾಂ ಇಂದ್ರಸ್ಯೇಂದ್ರಿಯೇಣ ಶ್ರಿಯೈ ಯಶಸೇ ಬಲಾಯಾಭಿಷಿಂಚಾಮಿ ದೇವಸ್ಯ ತ್ವಾ ಸವಿತು ಪ್ರಸವೇಶ್ವಿನೋರ್ಬಾಹುಭ್ಯಾಂ ಉಷ್ಣೋ ಹಸ್ತಾಭ್ಯಾಗುಂ ಸರಸ್ವತ್ಯೈ ವಾಚೋ ಯಂತುರ್ಯಂತ್ರೇನಾಗ್ನೇ ಸ್ವಸಾಮ್ರಾಜ್ಯೇ ನಾಭಿಷಿಂಚಾಮೀಂದ್ರಸ್ಯ ತ್ವಾ ಸಾಮ್ರಾಜ್ಯೇ ನಾಭಿಷಿಂಚಾಮಿ ಬೃಹಸ್ಪತೇ ಸ್ವಸಾಮ್ರಾಜ್ಯೇ ನಾಭಿಷಿಂಚಾಮಿ ಆಯುರಾಶಾಸ್ತೆ ಸುಪ್ರಜಾಸ್ವಮಾಶಾಸ್ತೆ ಸಜಾತವನಶ್ಯಾಮಾಶಾಸ್ತೆ ಉತ್ತರಾಂ ದೇವಯದ್ಯಾಮಾಶಾಸ್ತೆ ಭೂಯೋಹ ವಿಷ್ಕರಣಮಾಶಾಸ್ತೆ ದಿವ್ಯಂ ಥಾಮಾಶಾಸ್ತೆ ವಿಶ್ವಂ ಪ್ರಿಯಮಾಶಾಸ್ತೆ ಯದನೇನ ಹವಿಷಾಶಾಸ್ತೆ ತದಸ್ಯಾತ್ ದೃತ್ಯಾತ್ ತದಸ್ಮೈ ದೇವಾರಾಸಂತಾಂ ದ್ರಿಪದಾದಿವೇನ ಮುಮುಚಾನಃ ಸ್ವಿನ್ನಸ್ನಾದ್ವಿಮಲಾಲಿವ ಭೂತಂ ಪವಿತ್ರೇಣೇವಾಜ್ಯಂ ಆಪಶುಂಧಂತು ಮೈನಸಃ ಭೂರ್ಭುವತ್ಸುವೋರ್ಭೂರ್ಭುವತ್ಸುವೋರ್ಭೂರ್ಭುವತ್ಸುವಃ ಶಾಂತಿ ಶಾಂತಿ ಶಾಂತಿಃ ಪೂರ್ಣಮದಃ ಪೂರ್ಣಮಿದಂ ಪೂರ್ಣಾತ್ ಪೂರ್ಣಮುದಚ್ಯತೆ ಪೂರ್ಣಸ್ಯ ಪೂರ್ಣಮಾದಾಯ ಪೂರ್ಣಮೇವಾವಶಿಷ್ಯತೆ ॐ शांति 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 ॐ ईशावास्यमिदगुं सर्वं यत्किंच जगत्यां जगत् तेन त्यक्तेन भुञ्जेधामाग्रदः कस्य स्विट्ठनम् कुर्वन्नेवेह कर्माणि जिजीविषे शतगुं समाः एवं त्वयि नान्यते तोऽस्ति न कर्म लिप्यते नरे असुर्यानामते लोका अन्धेन तमसा वृताः तागस्ते प्रेत्याभिगच्छन्ति ये केचान् महनोजनाः अने जदेकं मनसो जवेयो नैन देवा आप्रुवन् पूर्ववर्षत् तद्धावतोन्नान्यत्ते तिष्ठत् तस्मिन् नपोमातरिष्वा दधाति तदेजति तन्नेजति तद्दूरे तद्वन्दिके तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति सर्वभूतेषु चात्मानं ततो न विजुगुप्सते यस्मिन् सर्वाणि भूतान्यात्मैवाभूद्विजानतः तत्र को मोहः कः शोकः एकत्वमनुपश्यतः सपर्यगा शुक्रमकायमवृणवस्ना विरगुं शुद्धमपापविद्धम् कविर्मनीषे परिभोः स्वयम्भोर्यात्तात्यत्यधोर्धान् यददाच्छाश्वतेभ्यः समाभ्यः अन्धम् तमः प्रविशन्ति ये विद्यामुपासते ततो भूय इव ते तमोय उविद्याया गुम्रथाः अन्यदेवाहुर्विद्यया अन्यदा पुरविद्यया इति शुश्रुमधीराणाम् येनस्तद्विचक्षिरे विद्याम् च विद्याम् च यस्तत्वेदो भयगुंसः अविद्यया मृत्युम् तेर्द्वा विद्यया मृतमश्नुते अन्धम् तमप्रविशन्ति ये सम्भूतिमुपासते ततो भूय इव ते तमोयौ सम्भूत्यागुम् रथाः अन्यदेवाहुः सम्भवादन्यदा पुरसम्भवात् इति शुश्रुमधीराणाम् येनस्तद्विजचक्षिरे सम्भूतिम् च विनाशम् च यस्तत्वेदो भयगुंसः विनाशेन मृत्युम् तीर्त्वा सम्भूत्या मृतमश्नुते हिरण्मयेन पात्रेण सत्यस्यापि तम् मुखम् तत्त्वम् पोषन्नपावृणु सत्यधर्माय दृष्टये पोषन्नेकर्षे यमसूर्य प्राजापत्यव्योः रश्मि समोहते जोयते रूपम् कल्याणतमम् तत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि वायुरनिनममृतमधेतम् भस्मान्तगुम् शरीरम् ॐ क्रतोस्मर कृतगस्मर क्रतोस्मर कृतगस्मर अग्नेनय सुपथाराये अस्मान् विश्वानि देव वयुनानि विद्वान् युयोर्जस्मज्जुहुरानमे नो भूयिष्ठा ते नम उक्तिम् विधेम
ॐ पूर्णमदः पूर्णमिदम् पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः ॐ धाता पुरस्ताद्य मुदा जहार शक्र प्रविद्वान् प्रदिशत सः तमेवम् विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते सहस्रशीर्षम् देवम् विश्वाक्षम् विश्वशम्भुवम् विश्वम् नारायणम् देवमक्षरम् परमम् पदम् विश्वतः परमा नित्यम् विश्वम् नारायणम् हरिम् विश्वमेवेदम् पुरुषस्तद्विश्वमुपजीवते पदिम् विश्वस्यास्मेश्वरगुम् शाश्वतगुम् शिवमच्युतम् नारायणम् महाज्ञेयम् विश्वात्मानम् परायणम् नारायण परो ज्योतिरात्मा नारायण परः नारायण परम् ब्रह्म तत्त्वम् नारायण परः नारायण परो ध्याता ध्यानम् नारायण परः यच्च किञ्चिज्जगत् सर्वम् दृश्यते श्रूयतेऽपि वा अन्तर्बहिश्च तत्सर्वम् व्याप्य नारायणस्थितः अनन्तमव्ययम् कविगुम् समुद्रेन्तम् विश्वशम्भुवम् पद्मकोशम् प्रतिकाशगुम् हृदयम् चाभ्यदोमुखम् अदो निश्याविदस्यान्ते नाभ्यामुपरितिष्ठते ज्वालमालाकुलम् भाति विश्वस्यायतनम् महत् सन्ततगुम् शिलाभिस्तुलम् भक्त्या कोशसन्निभम् तस्यान्ते सुशिलगुम् सूक्ष्मम् तस्मिन् सर्वम् प्रतिष्ठितम् तस्य मध्ये महानग्निर्विश्वार्चिर्विश्वतोमुखः सोऽग्रभुग्विभजन् दिष्टम् नाहारमजरः कविः तिर्यगोर्ध्वमलश्यायीरश्मयस्तस्य सन्तदा सन्तापयदिश्वम् देहमापादतलमस्तकः तस्य मध्ये वह्निशिका अनीयोर्ध्वा व्यवस्थितः नीलतो यदमध्यस्ता विद्युल्लेखे भवास्वरा नीवारशोकवर्तन्विपीताभाश्वत्यनुपमा तस्याशिखाया मध्ये परमात्मा व्यवस्थितः स ब्रह्म स शिवः स हरिश्चेन्द्रः सोऽक्षरः परमस्वराट् हृदगुम् सत्यम् परम् ब्रह्म पुरुषम् कृष्णपिङ्गलम् ऊर्ध्वरेकम् विरूपाक्षम् विश्वरूपाय वै नमो नमः नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णु प्रचोदयात् राजाधिराजाय प्रसह्यसाहिने नमो वयम् वै श्रवणाय कुर्महे समे कामान् कामकामाय मह्यम् कामेश्वरो वै श्रवणो ददातु कुबेराय वै श्रवणाय महाराजाय नमः स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीम् महिषाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति शान्तिः